हर्थालम्बन काल एव कलयन् ज्ञानस्य सत्त्वं बहिर्ज्ञेयालम्बन लालसेन मनसा भ्राम्यन् पशुर्नश्यति नास्ति त्वं परकालतोऽस्य कलयन् स्याद्वादवेदी पुनस्तिष्ठत्यात्मनिखात नित्यसहज ज्ञानैकपुञ्जीभवन्।